इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। प्रधानमन्त्रिणा नरेन्द्र मोदिना प्रोदीरितं यत् भारतं स्वस्य सुदृढ़ अर्थव्यवस्थया सह विश्वस्य आशायाः दीपस्तम्भः अस्ति इति। सः उक्तवान् यत् अधिकनिर्माणम् अधिकोत्पादनम् अधिकसंयोजनं निर्यातञ्च कर्तुं सर्वकारस्य उद्देश्यः संकल्पश्च स्पष्टो वर्तते। केन्द्रं पश्चिमबङ्गालराज्ये नागरिक संशोधन अधिनियमस्यान्तर्गतं भारतीय नागरिकतायाः आवेदनानां विषये निर्णयं कर्तुम् इतोपि अधिकशक्तियुत समितिद्वयम् अस्थापयत्। पश्चिम एशियादेशे संघर्षः तीव्रतरः अभवत् यत् ईरान देशः संयुक्त इज़राइल यूएस सैनिकाः च क्षिपणि ड्रोन आक्रमणानां नूतनान् चरणान् प्रारब्धवन्तः। तेहरान नगरे वर्धमान संकट धारणया ईरान देशस्य भारतीय दूतावासेन तेहरान नगरे स्थितेभ्यः भारतीय छात्रान् नगरात् बहिः सुरक्षित स्थानेषु स्थानान्तरिताः। पश्चिम एशियायाः वर्तमानस्थितौ अद्य एयर इंडिया संस्थायाः प्रथमं विमानयानं दुबई नगरात् नवदेहली नगरं प्राप्नोत्, अपि च बर्मिंघम नगरे अद्य ऑल इंग्लैंड बैडमिंटन चैंपियनशिप प्रतिस्पर्धा प्रचलति। अथ वार्ताः विस्तरेण। प्रधानमन्त्रिणा नरेन्द्र मोदिना प्रोदीरितं यत् भारतं स्वस्य सुदृढ अर्थव्यवस्थया सह विश्वस्य आशायाः दीपस्तम्भः अस्ति इति। सः अवदत् यत् भारतं विश्वं प्रति आशायाः दीपस्तम्भरूपेण उद्भूतमस्ति, सममेव द्रुतः आर्थिकविकासः जायते, येन विकासितभारतस्य सङ्कल्पस्य आधारशिला च विनिर्मिता। प्रधानमन्त्री अद्य प्रातः आर्थिकवृद्धेः सुस्थिरीकरणं सुदृढीकरणञ्च इति विषये आयव्ययोत्तर आभासीय सम्मेलनं सम्बोधयन् आसीत्।
आज जब भारत अपनी मजबूत इकोनॉमी से पूरे विश्व की उम्मीद बना हुआ है, आज जब ग्लोबल सप्लाई चेन रीशेप हो रही है, तब अर्थव्यवस्था की तेज प्रगति विकसित भारत का भी बहुत बड़ा आधार है। हमारी दिशा स्पष्ट है, हमारा संकल्प स्पष्ट है। बिल्ड मोर, प्रोड्यूस मोर, कनेक्ट मोर और अब जरूरत है एक्सपोर्ट मोर।
प्रधानमन्त्री अवदत् यत् अद्य जगत विश्वसनीयं स्थितिस्थापकं विनिर्माण सहभागिनं च अन्वेषयति। सः अवदत् यत् अस्यां दिशि भारतस्य पार्श्वे प्रमुखां भूमिकां निर्वोढुम् अवसरो विद्यते।
मैन्युफैक्चरिंग के क्षेत्र में आज देश कोर इंडस्ट्रियल क्षमताओं को मजबूत कर रहा है और इस मार्ग में जो चुनौतियां हैं उन्हें भी दूर किया जा रहा है। डेडिकेटेड रेयर अर्थ कॉरिडोर्स, कंटेनर मैन्युफैक्चरिंग, ऐसे सेक्टर्स पर फोकस करके हम अपने ट्रेड इकोसिस्टम को मजबूत करने का प्रयास कर रहे हैं।
प्रधानमंत्री श्री मोदी अवदत् यत् अधिक निर्माणम् अधिकोत्पादनम् अधिक संयोजनम् अधिकं निर्यातञ्च कर्तुं सर्वकारस्य उद्देश्यः संकल्पश्च स्पष्टो वर्तते। सः अवदत् यत् गुणवत्तायाः विषये कदापि आपोषणं न करणीयमिति। प्रत्येकस्य दायित्वम् अस्ति उत्पादानां वैश्विकमानकं च भवितव्यम् इति स्पष्टं भवेत्।
हमारे प्रोडक्ट्स की क्वालिटी ग्लोबल स्टैंडर्ड, इतना ही नहीं उससे भी बेहतर हो, और इसके लिए हमें दूसरे देशों की जरूरतों को, वहां के लोगों की अपेक्षाओं को भी उसका अध्ययन करना पड़ेगा, रिसर्च करनी पड़ेगी, उसे समझना होगा। हमें दूसरे देशों के लोगों की पसंद और उनके कंफर्ट को स्टडी करना यह सबसे बड़ी आवश्यकता है।
प्रधानमंत्री मोदी अवदत् यत् वैश्विक अर्थव्यवस्थायां महत परिवर्तनं प्रचलति। अधुना विपणयः व्ययेन सह सुस्थिरतायां केन्द्रीकृताः सन्ति। सः एतदपि अवदत् यत् स्वच्छ प्रौद्योगिकीषु शीघ्र निवेशेन उद्यमाः उदयोन्मुख विपणकेषु प्रवेष्टुं समर्थाः भविष्यन्ति इति। श्री मोदी सर्वकारीय एमएसएमई परिष्काराणां सकारात्मक प्रभावम् उद्घाटितवान् अपि च परिवहन व्ययं न्यूनीकर्तुम् उच्च क्षमतायुतस्य परिवहनस्य बहुविध सम्पर्कस्य रेलमार्गस्य राजमार्गस्य नौकाश्रयस्य विमानस्थानकस्य जलमार्गस्य च मध्ये उत्तम समन्वयस्य आवश्यकतायाः विषये अवधानं प्रदत्तवान्। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज़ ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। केन्द्रं पश्चिम बंगाल राज्ये नागरिक संशोधन अधिनियमस्य अन्तर्गतं भारतीय नागरिकतायाः आवेदनानां विषये निर्णयं कर्तुम् इतोपि अधिक शक्तियुत समितिद्वयम् अस्थापयत्। राजपत्र अधिसूचनायां केन्द्रीय गृहमन्त्रालयः स्पष्टीकृतवान् यत् अधिकार प्राप्त समित्याः नेतृत्वं उपसचिव पदात् न्यूनतरः अधिकारी करिष्यति, यस्य नामांकनं भारतस्य महापंजीयकः जनगणना आयुक्तः च करिष्यतः। पश्चिम एशिया देशे संघर्षः तीव्रतरः अभवत् यत् ईरान देशः संयुक्त इजराइल यूएस सैनिकाः एमएनजी देशः च क्षिपणि ड्रोन आक्रमणानां नूतनान् चरणान् प्रारब्धवन्तः। नवीनतम वृत्तान्तानुगुणं इजराइल देशः सम्प्रति तेहरान वैरूत नगरयोः सैन्य लक्ष्याणां विरुद्धं युगपद लक्ष्यीकृतानि आक्रमणानि कुर्वन्नस्ति। इजराइल रक्षाबलम् अवदत् यत् तस्य सैनिकाः दक्षिण लेबनान देशे कार्यरताः सन्ति, सीमाक्षेत्रस्य समीपे अनेकेषु स्थानेषु स्थिताः सन्ति, येन रक्षायाः स्थितिः वर्धितास्ति। सः इतोपि अवदत् यत् इजराइल देशः हिजबुल्ला इत्यस्य मूलसौकर्याणां विरुद्धं लक्ष्यीकृतानि आक्रमणानि कुर्वन् अस्ति इति। तेहरान नगरे वर्धमान संकट धारणया ईरान देशस्य भारतीय दूतावासेन तेहरान नगरे स्थितेभ्यः अधिक भारतीय छात्राः नगरात् बहिः सुरक्षित स्थानेषु स्थानान्तरिताः। एकस्मिन् परामर्शे दूतावासेन उक्तं यत् तेषां परिवहनस्य भोजनस्य आवासस्य च व्यवस्था कृतास्ति। दूतावासेन अन्यान् भारतीय छात्रान् भारतीयान् नागरिकान् ये अद्यापि ईरान देशे एव तिष्ठन्ति तान् यथास्थिते स्थातुं यथासम्भवम् अन्तः एव स्थातुं च आदिष्टम्। भारतेन अद्य पश्चिम एशियायां विद्यमानस्य संघर्षस्य विषये संवादस्य कूटनीतेः च आह्वानं दृढतया प्रतिपादितम्। विदेशमन्त्रालयस्य प्रवक्ता रणधीरजायसवालः एकस्मिन् वक्तव्ये अवदत् यत् भारतं विवादस्य शीघ्रसमाप्तेः पक्षे स्पष्टतया स्वरम् उत्थापयति। सः दुःखेन नष्टानाम् अनेकाशां जीवनानां विषये दुःखं प्रकटितवान्। प्रवक्ता अवदत् यत् गल्फ क्षेत्रे निवसन्तः कार्यं च कुर्वन्तः प्रायः एककोट्यधिकाः भारतीय नागरिकाः सन्ति, तेषां सुरक्षायाः कल्याणस्य च सर्वोच्च प्राथमिकता अस्ति। व्यापार ऊर्जा आपूर्ति श्रृंखलाः अपि अस्मात् क्षेत्रात् एव गच्छन्ति इत्युक्त्वा जायसवालः अधोरेखितवान् यत् केनापि व्यवधानेन भारतीय अर्थव्यवस्थायां गभीरः प्रभावः भविष्यति। प्रवक्ता अवदत् यत् अग्रिमेषु कतिपयेषु दिनेषु एतादृशेषु आक्रमणेषु केचन भारतीयाः नागरिकाः मृताः अथवा लुप्ताः सन्ति। पश्चिम एशियायाः वर्तमानस्थितौ अद्य एयर इंडिया संस्थायाः प्रथमं विमानयानं दुबई नगरात् नवदेहली नगरं प्राप्नोत्। सामाजिक पटले एयर इंडिया इत्यनेन लिखितं यत् अस्मिन् विमाने 49,100 यात्रिणः 8 चालकदलस्य सदस्याः च आसन्। केन्द्रीय गृहमन्त्री अमितशाहः अद्य अट्टुकल पोंगला इत्यस्य पवित्रावसरे देशवासिनां कृते शुभकामनाः अयच्छत्। रक्षामन्त्रालयेन अद्य भारतीय तटरक्षकस्य कृते 6 उन्नत लघु उदग्र विमानानि अधिग्रहणार्थं प्रायः 83,500,000,000,000 रूप्यकाणाम् अनुबन्धेषु हस्ताक्षराणि कृतानि। अद्य सायंकाले बर्मिंघम नगरे ऑल इंग्लैंड बैडमिंटन चैंपियनशिप प्रतिस्पर्धा प्रचलति। भारतं स्वस्याभियानस्य आरम्भं 5 क्षेत्रेषु 12 सदस्यीय दलेन सह करिष्यति इति वार्ताः।